श्रीमद्भागवत महापुराणम् दशमस्कन्धः अथ द्वात्रिंशोऽध्यायः। श्रीशुक उवाच इति गोप्यः प्रगायन् प्रलपन्त्यश्च चित्रधा रुरुदुःसुस्वरं राजन् कृष्णदर्शनलालसाः। तासामाविरभूच्छौरिस्मयमानमुखाम्बुजः पीताम्बरधरस्रग्वी साक्षान्मन्मथमन्मथः। तौ विलोक्यागतं प्रेष्ठं प्रीत्युत्फुल्लदृशो बलाः उत्तस्थुर्युगपत्सर्वास्तन्वः प्राणमिवागतम्। काचित्कराम्बुजं शौरेर्जगृहे जलिनामुदा काचिद्दधार तद्बाहु मंसे चन्दनरूषितम्। काचिदैजलिना गृह्णातन्वीताम्बूलचर्वितम् एका तदङ्घ्रिकमलं सन्तप्तास्तनयोरधात्। एका भ्रुकुटिमा बध्यप्रेमसंरम्भविह्वला ग्नतीवैक्षत्कटाक्षेपैः सन्दष्टदशनच्छदा अपरानिमिषद्रुभ्यायजुषाणा तन्मुखाम्बुजम् आपीतमपि नातृप्यत् सन्तस्तच्चरणैर्यथा। तं काचिन्नेत्ररन्ध्रेण हृदि कृत्य निमील्य च पुलकाङ्ग्युपगुह्यास्ते योगी वानन्दसंप्लुता। सर्वास्ताक् केशवालोक परमोत्सवनिर्वृताः जहुर्विरहजं तापम् प्राज्ञं प्राप्य यथा जनाः। ताभिर्विधूतशोकाभिर्भगवानच्युतो वृतः व्यरोचताधिकन्तात् पुरुषशक्तिभिर्यथा। तासमादाय कालिन्द्या निर्विश्य पुलिनौ विभुः विकसत्कुन्दमन्दार सुरभ्यनिलषट्पदम्। शरच्चन्द्रांशु सन्दोहध्वस्तदोषातमः शिवम् कृष्णाया हस्ततरला चित्कोमलवालुकम्। तद्दर्शनाह्लादविधूतरुद्रुजो मनोरथान्तं श्रुतयो यथाययु स्वैरुत्तरीयैः कुचकुङ्कुमाङ्कितैः रचीकृपन्नासनमात्मबन्धवे। तत्रोपविष्टो भगवान् स ईश्वरो योगेश्वरान्तर् हृदि कल्पितासनः चकास गोपी परिषद गतोर्चितस् त्रैलोक्य लक्ष्मी कपदौ वपुर्दधत् सभाजयित्वा तमनङ्गदीपनं सहासलीले क्षणविभ्रमभ्रुवा संस्तुत्य ईषत् कुपिता बभाषिरे गोप्य ऊचुः भजतो नु भजन्तीक एक एतद्विपर्ययम् नो भयांश्च भजन्त्येक एतन्नो ब्रूहि साधु भोः श्रीभगवानुवाच मिथो भजन्ति ये सख्यः स्वार्थैकान्तोद्यमाहिते न तत्र सौहृदं धर्मस् स्वार्थार्थं तद्धिनान्यथा भजन्त्यभजतो ये वै करुणाः पितरो यथा धर्मो निरपवादोऽत्र सौहृदै च सुमध्यमाः भजतोऽपि न वै केचिद्भजन्त्यभजत कुतः आत्मा रामायाप्तकामा अकृतज्ञा गुरुद्रुहः नाहन्तु सख्यो भजतोऽपि जन्तून् भजाम्यमीशामनुवृत् वृत्तये यथा धनो लब्धधने विनष्टे तच्चिन्तयान्यन्विभृतो न वेद एवं मदर्थो जितलोकवेदस्वानां हि वो मयि अनुवृत्तये मया परोक्षं भजतातिरोहितं मासूयितं मार्हथ तत्प्रियं प्रियाः न पारयेहं निरवद्य संयुजां स्वसाधुकृत्यौ विबुधायुषापि वः यामा भजन् दुर्जरगेह शृङ्खलास् सौरुष्य तद्वः प्रतियातु साधुना इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडायां गोपी सान्त्वनन्नाम द्वात्रिंशोऽध्यायः ॐ सर्वं श्री कृष्णाय